चतुर्थ उल्लासः। यद्यपि शब्दार्थयोर् निर्णय कृते दोषगुणालङ्काराणां स्वरूपमभिधानीयं तथापि धर्मिणी प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदानाः। अविवक्षितवाच्यो यस्तत्र वाक्यं भवेद्ध्वनौ अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्। लक्षणामूलगुणव्यङ्ग्यप्रधान्ये सत्येव अविवक्षितं वाच्यं यत्र सह ध्वनौ इत्यनुवादाद् ध्वनिरिति ज्ञेयः तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितं यथा संस्कृतस्वरूपं लक्षणम् अविधानीयमिति अभिधातुं योम्यमित्यर्थः तद्दोषौ शब्दार्थ वितिकारिकोक्त क्रमानुरोधादिति भावः प्रदर्शिते इति भेद प्रभेद रूपक प्रकर्षेण दर्शिते इत्यर्थः। सामान्यतस्तु इदमुत्तम मतिशायिनी इत्यादिना दर्शितमेवेति बोध्यं ज्ञायत इति तत्तद्धर्मनिष्ठत्वेन ज्ञायत इत्यर्थः। सामान्यधर्मनिष्ठतया तु सामान्यकथनेनैव ज्ञातत्वादिति बोध्यम्। अविवक्षितवाच्य इति ध्वनिस्ता वद्विवक्षितवाच्यो विवक्षितान्यपरवाच्यस्य भवति तत्राविवक्षितवाच्यत्वं लक्षणामूलस्थल एव सम्भवति। अतो लक्षणामूलत्वध्वनि तयोर्द्वयोरपि प्रदर्शनीयत्वात् तयोश्च कारिकायाम् पूर्वमनुक्तत्वेन अर्थबललभ्यं तद्द्वयं शब्दपूरणेन दर्शयन् व्याचष्टे लक्षणामूलेति ध्वनिरिति ज्ञेय इति च व्यङ्ग्यस्यागूढत्वे गुणीभूतव्यङ्ग्यत्वमेव न ध्वनित्वमतो ध्वनित्वबललभ्यमाह। गूढेति तथात्व एव च व्यङ्ग्यस्य प्राधान्यमि तेतत् स्फोरणयाः प्राधान्ये इति व्याचष्टे तत्र च वाच्यमिति अनुपयुज्यमानत्वादिति वाच्यतावच्छेदकेन रूपेणेति शेषः। अर्थान्तरे अवच्छेदकान्तरे परिणमितं धर्मितया भातम् वाच्यो धर्मी अवच्छेदकान्तरेणैव ग्राह्य इत्यर्थः। उक्तषड्विधलक्षण सुपादान लक्षणायामेव एवं भवतीति बोध्यम्। अन्य पञ्चविधलक्षणासु तु रूपान्तरेणापि न वाच्यार्थान्वयबोध इत्युक्तम्। अत्यन्तं वेति कारिकाञ्चलेन त्वामस्मिति अस्मित्यहमित्य थे अव्ययम् त्वामहं वच्मि उपदिशामि समवायः सभा तत्तस्मात् अत्रेति उच्यमानार्थमहनी नैव वाच्मित्यस्य अर्थस्य लाभे वचनात् वचनज्ञापनमुपयुक्तम् अतोऽत्र उपदिशामोत्येवार्थ तथा च उपदेशत्वेन रूपेणैव वाच्यार्थस्य वचनस्योपस्थापकमिदमिति दर्शयति। अत्र वचमादिति परप्रवर्तकं वचनं वापदेशः अनुपेक्षणीयत्वञ्च एतल्लक्षणामूलं गूढं व्यङ्ग्यप्रयोजनम्। वचनादिजनं मतिपदमपि प्रकृष्टति परम् परापमानतः स्वरक्षणं च तत्प्रयोजनं गूढव्यङ्ग्यम्। सर्वत्र शक्याभेद एव लक्ष्यार्थे शक्यसम्बन्धः अत्यन्तं वेति व्याचष्टे क्वचिदिति रूपान्तरेणापि वाच्यार्थस्यान्वयानुपपत्तेरित्यर्थः। लक्षणलक्षणादिपञ्चक एवं भावो बोध्य उपकृतमिति प्रमाणान्तरावगता पकारिणम् प्रत्येव इयमुक्तिः। अत्र च तत्रेति समीचीनः पाठः यत्रेति पाठेतु तत्रेति पूरणीयम् परं सुखी तञ्चेति द्वयम् क्रियाविशेषणम् विपरीतेति उपकृतपदस्य अपकृते सुजनतापदस्य दुर्जनत्वे सुखीतपदस्य च दुखिते विपरीते लक्षण लक्षणेत्यर्थः वैपरीत्यमेष च शक्यलक्ष्ययोः संबंधः। पूर्वद्वये बोद्धव्य पुरुषस्य अपकर्तुः कौटिल्यं, तृतीये च दुःखितत्वस्य कौटिल्यफलत्वं, व्यंग्यं त्रिष्वेव लक्ष्यार्थस्यातिशयो। व्यंग्य इति तु दर्पणकृत बहु प्रभेद दर्पणकृत वृत्ति विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सह अन्यपरं व्यंग्यनिष्ठं। एष च कारिका कोप्य लक्ष्य क्रम व्यंग्ययोः लक्ष्य व्यंग्य क्रमः परः। अलक्ष्येति न खलु विभावानुभाव व्यभिचारेण एव रसः, अपि तु रसस्तैरित्यस्ति क्रमः। स तु लाघवान्न लक्ष्यते तत्र। संस्कृत व्याख्या बहु प्रभेदं विवक्षितान्य परवाच्य ध्वनिमाः विवक्षितांचेति यत्र ध्वनौ व्यंग्यनिष्ठमिति व्यंग्ये निष्ठा बुबोधै शा पर्याप्तिर्यस्येति विग्रह। तस्य विभागं चिकीर्षुरादौ दैविध्यमाः कोपिति एष च इति तु तदुत्थापिका वृत्ति। वाच्यार्थबोधानन्तरं व्यंग्यार्थबोध इति क्रमो लक्ष्यो परिचेयो यस्य तादृशं व्यंग्य यस्येति बहुव्रीहि द्वयेन कोऽपि ध्वनिस्तादृश इत्यर्थः। परः तदन्यस्तु लक्षणीय व्यंग्यबोधकम् इत्यर्थः। तत्राद्यो रसभावादिध्वनि वक्ष्यते रसादेरत्यन्ताकर्षकत्वेन शीघ्रबोधाद् वाच्यबोधसमकालमेव व्यंग्यबोध इति भ्रमोदयात्। ननु रत्यादिस्थायीभावानां कारणानि विभावाः कार्याण्यनुभावाः कार्यविशेषाञ्च सहकारिणो वक्ष्यन्ते। काव्ये च त एव वाच्या अपि व्यंग्य रत्यादिबोधे समानतया प्रपाण करसंज्ञायेन चर्व्यमाणा रसतामा पद्यन्ते इति वक्ष्यते। तथा च ये विभावादयो वाच्यास्त एव व्यंग्यरसशरीरमिति वाच्यविभावादि व्यंग्यरसयोर्भेदाभावात् वाच्यव्यंग्यबोधकम् एव नास्तीति कुतो लक्ष्यत्वमिति भ्रान्तशङ्कां निरस्य नाह। न खल्विति एव कारात् तन्मात्रस्य रसत्वव्यवच्छेदः, किन्तु तन्मात्रस्य वाच्यत्वम् तद्विशिष्टस्य रत्यादेर्व्यंग्यस्य रसत्वमित्याह, अपि तु रसस्तैरिति शाब्दबोधविषयस्तै रसो निष्पाद्यते ज्ञायते चेत्यर्थ। तथा च वाच्यविभावादेर्भेदो बोधक्रमश्चास्तीत्याह इत्यस्ति क्रम इति तदुक्तं दर्पणे। कारिका रसभाव तदाभास भाव शान्त्यादीर क्रमः भिन्नो रसाद्यलङ्काराद्यलङ्कार्यतया स्थितः। वृत्ति आदिग्रहणाद् भावोदय भावसन्धि भावशबलत्वानि प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः यथोदाहरिष्यते। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्गेय रसवत प्रेय ऊर्जस्वी समाहितादयो लङ्काराः, ते च गुणीभूतव्यङ्गया विधाने उदाहरिष्यन्ते तत्र रसस्वरूपमाः। संस्कृतव्याख्या प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते, ततः संबलितः सर्वो विभावादिः सचेतसाम् प्रपाणकरसंज्ञा याच्चर्व्यमाणो रसो भवेत् इति। लाघवादिति शीघ्रोपस्थितिकत्वादित्यर्थ। अलक्ष्यक्रमान् व्यङ्ग्यान् दर्शयति तत्रेति तदाभासेत्यत्र तत्पदेन रसभावयो द्वयोरपि परामर्शः अक्रमः अलक्ष्यक्रमः भिन्नो रसादिति पराङ्गत्वे सति रसादय एवालङ्कारा वक्ष्यन्ते। तादृशालङ्कारात् भिन्नः परानङ्गत्वेन अलङ्कार्यतया स्थितो यः स एव काव्यस्य ध्वनित्वनिर्वाहको अक्रम इत्यर्थः। पराङ्गभूतो रसादिस्तु अक्रमत्वे अपि काव्यस्य गुणीभूतव्यङ्ग्यत्वनिर्वाहक एवेति भिन्न इत्यादिना तद् व्यवच्छेदः कृतः। आदिग्रहणादिति भावसान्त्यादिरित्यादिग्रहणादित्यर्थः भावोदयादि लक्षणं तदुदाहरणवासरे वक्ष्यते। अलङ्कार्यतेत्यत्र अलङ्कारयोग्यतैव विवक्षितेत्याह प्रधानतयेति पराङ्गत्वमेव प्राधान्यं सैव चालङ्कारयोग्यतेति भावः। काव्यस्य तु सर्वत्र सालङ्कारत्वं वैचित्र्यमात्रसत्त्वादिति प्रागेव दर्शितम्। यथोदाहरिष्यत् इति शून्यं वासगृहमित्यादिकं तद्बोध्यम्। पराङ्गत्वे तु तस्य अलङ्कारत्वमेव नालङ्कार्यत्वमित्याह। अन्यत्र त्विति वाक्यार्थे रसादिरूपे रसस्यांगत्वे रसवान् भावस्थांगत्वे प्रेयान् आभासस्यांगत्वे ऊर्जस्वी भावशान्त्यादे रंगत्वे समाहितं नाम अलङ्कार इत्यर्थ। गुणीभूत व्यंग्याभिधान इति अपराङ्ग गुणीभूत व्यंग्यस्य अभिधाने कृते सतित्यर्थः। एते च रसवदालङ्कारा इति तदुत्तरं वक्ष्यमाणत्वात्। कारिका कारणान्यथ कार्याणि सहकारिणि यानि च रत्यादिः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः। संस्कृत रसस्वरूपं रसलक्षणं तत्र विभावादैर्व्यक्तः स्थायी भावो रस इति रसलक्षणं कर्तुं विभावादि परिभाषां ग्राहयति। कारणानित्यादिना व्यभिचारेण इत्यन्तेन अन्यत्र सहकारिपदं कारणान्तरपरम् अत्र तु रत्यादेः कार्यविशेषपरमेव। रत्यादि स्वकारणव्यजने शीघ्रक्रमरितारूपात् सहभावात् तथा व्यपदेशः तानि च निर्वेदादयस्त्रय स्त्री शब्दभावा वक्ष्यते रत्यादेरिति। कारिका विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः। व्यक्तः स तैर्विभावादेः स्थायी भावो रसः स्मृतः। संस्कृत रतिर्हासस्य शोकस्य क्रोधोत्साहो भयं तथा जुगुप्सा विस्मयश्चेति स्थायी भावा प्रकीर्तिताः इति वक्ष्यमाणस्थायी भावा नामित्यर्थः। एवञ्च स्थायिनः स्थायी परिभाषितस्य रत्यादेर्यानि कारणानि आलम्बनो हि पनरूपविशेषाः यानि च कार्याणि गणयिष्य माणत्रयस्त्रिंशत् कार्यभिन्नकार्यसामान्यम् यानि च सहकारणि निर्वेदादयस्त्रय त्रिंशत् कार्यविशेषालोके नाट्यकाव्य भिन्नलोकव्यवहारे कारणादीतयैव श्रूयन्ते इति शेषः। तानि चेन्नाट्यकाव्ययोर्व्यवह्रियन्ते इति शेषः। तदा यथासङ्ख्यं विभावा अनुभावा व्यभिचारिणश्च कथ्यन्त इत्यर्थ। व्यभिचारिणां सञ्चारी परिभाषापि दोषोल्लासे व्यक्ति भविष्यति। अत्र च रत्यादेरित्युक्तैव निर्वाहे स्थायिन इति यदुक्तं तेन रसान्तरस्थायिभावस्य रसान्तरे स्थायिभावत्वं नास्ति किन्तु व्यभिचारित्वमेवेति ज्ञापितम्। एवञ्च हासक्रोधयो शृङ्गारे तथात्वम् एव मन्येषाम्प्यन्यत्र एवं व्यभिचारीभावानामपि व्यभिचारीभावध्वनौ स्थायीभावत्वं सूचितम् अग्रे च तद्यमपि दर्शयिष्यामः। वृत्ति। उक्तम ही भरतेन विभावानुभाव व्यभिचारी संयोगाद रस निष्पत्तिरिति। एतद् विवृण्वते विभार वैलक्ष्य नोद्यानादिभिरालम्ब नोद्दीपन कारणैरत्यादिको भावो जनितः अनुभावै कटाक्ष भुजा क्षेप प्रभृतिभिः कार्यैः प्रतीति योग्यः कृतः व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिः रूपचितो मुख्य या वृत्त्या रामादा वनुकारे तद्रूपतानुसन्धानानर्तकेऽपि प्रतीयमानो रस इति भट्टलोल्लट प्रभृतयः। संस्कृत व्याख्या। इत्थं परिभाषां ग्राहयित्वा तद्घटितं रसलक्षणमाह व्यक्तः सः तैरिति नाट्यकाव्ययोर्ज्ञातैतैः विभावाद्यैः व्यक्तः ज्ञातसन् स स्थायीभावः रत्यादिः रस इत्यर्थः। ज्ञातत्वञ्च क्वचिन्मते व्यञ्जनया क्वचिन्मते अनुमानान्तरं साक्षात्कारेण क्वचिन्मते तनुमाननिरपेक्षेण साक्षात्कारेण क्वचिन्मते तु व्यञ्जनानन्तरं साक्षात्कारेणेति तत्र तत्र मते व्यक्ति भविष्यति भरतेनेति भरतप्रणीतनाट्यशास्त्र इत्यर्थः। अत एव तस्य प्रकृतग्रन्थत्वाभावाद् ग्रन्थकृतेति नोक्तं संयोगादिति एकज्ञानविषयीभावरूपान्मिलनादित्यर्थः। मिलितैरेव तैरसबोधजननस्य वक्ष्यमाणत्वात् विवृण्वत् इति भट्टलोल्लट प्रभृतय इत्यग्रे अन्वयः। विवरणञ्च न लक्षणार्थस्य किन्तु विभावादिभिः ज्ञापनप्रकारस्यै वेति बोध्यं तत्र विभावादिभिः व्यञ्ज्यमानत्वमुपपादयितुं विभावादिनां तेषुं सम्बन्धं ग्राहयति। विभावैरिति ललना आलम्बनरूपं कारणं नायकानुरागात्मनो रतेस्तामवलम्बैवोत्पत्तेः। नायकारतौ तु नायक आलम्बनम् उद्यानादिरुद्दीपनं कारणं जायमानाया रतिधारायास्तेनोत्तरोत्तरमुदीपनात्। ललनोद्यानाद्योर्यथा सङ्ख्यमालम्बनोद्दीपनान्वयः जनित इत्यत्र च भवतीति शेष कार्यकारणत्वरूप सम्बन्ध प्रदर्शने जननातीत्व प्रदर्शनानौचित्यात् कटाक्षभुजाक्षेपावत्र नायकस्यैव ललनालम्बन प्रदर्शनेनात्र नायक रतेरेवोपक्रान्तित्वात् ललना कटाक्षादेश्च तदकार्यत्वात् भुजस्य तत्प्राप्त्यनुकूल चेष्टैवाक्षेपः अत्रापि कृत इत्यत्र भवतीति शेषः। कार्यकारणभावसम्बन्धेन पूर्वत्र कारणस्य कार्यज्ञापकत्व इह तु कार्यस्य कारणरत्यादिज्ञापकत्व मुक्तं निर्वेदादिभिरिति वक्ष्यमाणैस्त्रयस्त्रिंशता कार्यविशेषैरित्यर्थः। अत्रापि उपचितो भवतीति शेष। उपचयस्य शीघ्रप्रत्यायनमेव न चैवमेषामन्यापेक्षया शीघ्रप्रत्यायकत्वे मिलितानामेव रत्यादिप्रत्यायकत्वमिति वक्ष्यमाणसिद्धान्तः। कथमुपपत्स्यते इति वाच्यम् एषामेकैकस्य प्रतीतौ योऽन्यतम् द्वयाक्षेपो वक्ष्यते तस्य शीघ्रत्वेन रत्यादेरपि शीघ्रवृत्त्यायनात्। अन्येषाम् तु केवलानाम् प्रतीतौ विलम्बेनान्याक्षेपात् रत्यादिबोधेऽपि विलम्बात् नाट्याभिप्रायणाः मुख्येति वास्तव्येत्यर्थः। नर्तके अनुकारके काव्ये तु रामादावेवेति बोध्यं प्रतीयमानः व्यञ्जमानः। इत्थं व्यञ्जनया रामादौ सामाजिकः प्रतीयमानो रत्यादि रस इत्युक्तं रामः सीता विषयकरति मानित्याकारक ज्ञानसंबंधेन सामाजिकवृत्तित्वादेव सामाजिकारसवन्तः।